सर्वेषां स्वागतं नूतनवर्षशुभाशयाः शुभं भूयात् प्रार्थनया आरम्भं कुर्मः वा अस्तु वदति वा आं भगिनि
शुक्लां वरदरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुब्रह्मा गुरुर्विष्णो गुरुदेवो महेश्वरः गुरुसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै शान्ति शान्ति शान्तिः
धन्यवादः एतत् का वक्तुम् इच्छति अस्तु अहं पठामि रामो अन्य कोऽपि पठितुम् इच्छति वा
अहं प्रयत्नं करोमि भगिनि
आं भगिनि गतवर्गे अपि भवती पठितवती सम्यक् एव पठतु
रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दातुस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुत्तर ॐ श्री सीतारामचन्द्राभ्यां नमः
उत्तमं भगिनि सो रामः इति प्रथमा विभक्ति रामो रामो भवति सन्धिकारणात् रामो इति भवति रामः प्रथमा विभक्ति रामं द्वितीया विभक्ति रामेण तृतीया विभक्ति अनन्तरम् अभिहता इति अस्ति अतः रामेणाभिहता इति मिलित्वा लिखामः रामाय चतुर्थी रामात् नास्ति इति अस्ति परन्तु अत्र सन्धि भूत्वा रामान् नास्ति इति भवति अग्रे रामस्य षष्ठी रामे सप्तमी भो राम सम्बोधन अत्र सर्वम् अस्ति अत्र अस्तु सुभाषितं भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात् दुग्धं यच्छन्ति लोकेभ्यः लोकेभ्यो धेनवो लोकमातरः मिलित्वा पठामः चेत् लोकेभ्यो पृथक् पृथक् पठामः चेत् लोकेभ्यः धेनवो लोकमातरः पुनः पठामि भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात् दुग्धं यच्छन्ति लोकेभ्यो अथवा लोकेभ्यः धेनवो लोकमातरः अस्तु धेनवः शुष्कानि तृणानि खादन्ति भुक्त्वा इत्युक्ते खादन्ति खादित्वा भुक्त्वा इति अन्यरूपम् अस्ति अन्यपदम् अस्ति खादन्ति इति पदस्य समानार्थकपदं खादन्ति शुष्कानि तृणानि तृणानि वयं जानीमः खलु हरितवर्ण अस्ति परन्तु शुष्कम् इत्युक्ते एतत् वर्णमेव भवति काषायवर्णं वा काषाय न जानामि ड्रै शुष्कानि शुष्कानि इत्युक्ते ड्रै एव परन्तु अहं वर्णविषये चिन्तयामि. एतत् वर्णस्य नाम अहम् इदानीं न स्मरामि. एतादृशवर्णं भवति. शुष्कानि इति विपरीत अर्थ अस्ति. आर्द्राणि, आर्द्राणि तृणानि इति वदामः चेत् हरितवर्णं भवति, हरितवर्णे भवति. परन्तु शुष्कानि तृणानि हरितवर्णे न भवति. जलाशय, जलाशयात् इत्युक्ते यत्र जलम् अस्ति इत्युक्ते सरोवरः, नदी, सस्यं, तादृशस्थलं जलाशयः. जलाशयात् जलं पिबति इत्युक्ते लोकेभ्यः अन्नम् उदकम्, उदकम् इत्युक्ते जलं च न स्वीकुर्वन्ति. तथापि लोकेभ्यः दुग्धं यच्छन्ति. सो अत्र लोकेभ्यः न स्वीकुर्वन्ति इति वदामः चेत् अत्र पञ्चमी विभक्तिरूपं खलु. लोकेभ्यः न स्वीकुर्वन्ति परन्तु लोकेभ्यः ददति. अत्र चतुर्थी विभक्ति भवति. समानरूपं परन्तु भिन्न अर्थं. लोकेभ्यः स्वीकुर्वन्ति, लोकेभ्यः ददति. अतः धेनवः लोकानां मातरः इति वदामः.
भगिनि, कपिलवर्णः.
कपिल, मम कषाय चिन्त कपिल. धन्यवादः भगिनि, कपिल अस्तु.
अहमपि स्मरामि, विस्मरामि. नो, ऐ फर्गाट् व्हाट् डू ऐ से फॉर ऐ फर्गाट्.
विस्मरामि.
तदनन्तरं स्मरामि.
उत्तम. सो अत्र हरितवर्णः अत्र अस्ति. अस्तु, प्रश्नः अस्ति वा? बहु सुलभः, सुभाषितमेव, सुलभं सुभाषितं. भुक्त्वा तृणानि शुष्कानि, पीत्वा तोयं जलाशयात्, दुग्धं यच्छन्ति लोकेभ्यो, धेनवो लोकमातरः इति. अस्तु, अग्रे गीतं गातुम् इच्छन्ति वा? अग्रे गच्छामः वा? एकवारं बहु सुन्दरगीतं. ग्रामे नगरे समस्तराष्ट्रे रचयेम संस्कृतभवनम्, रचयेम संस्कृतभवनम्. गातुमिच्छति वा कोऽपि?
वयं सर्वेभ्यः
ग्रामे नगरे
समस्तराष्ट्रे
रचयेम संस्कृतभवनम्, रचयेम संस्कृतभवनम्. पुनरेकवारं. ग्रामे नगरे समस्तराष्ट्रे रचयेम संस्कृतभवनम्, रचयेम संस्कृतभवनम्. अनन्तरम्. इष्टिकां विना मृत्तिकां विना, केवल सम्भाषणविधय, केवल सम्भाषणविधय.
नमस्कार
महोदय. नमस्कार. संस्कृत सम्भाषण कलया,
संस्कृत सम्भाषण कलया.
पुनरेकवारं. इष्टिका विना मृत्तिका विना,
केवल संभाषण
पुनः प्रथमतः
ग्रामे नगरे
अस्तु अग्रे
शिशुबाला स्मृत मृदुवचने युवयुवतीना मञ्जुभाषणे वृद्धगुरूणा वत्सल हृदये रचये संस्कृतभवनम् रचयेम संस्कृतभवनम्
रचयेम संस्कृतभवनम्
पुनः
ग्रामे नगरे समस्त राष्ट्रे
अन्यत् एकमपि गायामः
अरुणोदयतः सुप्रभातम् अरुणोदयतः शुभरात्रिं निशि संवदे देवानिशं संस्कृतवचनेन रचयेम संस्कृतभवनम् ग्रामे नगरे
उत्तमगीतं खलु बहु
उत्तमं भगिनि एकवारं पूर्णतया भवती गायतु
अस्तु अहं प्रेषयामि वाट्सप् मध्ये प्रेषयामि
वर्ड्स् आल्सो भगिनि देन् इट् विल् बी ईज़ी फार् अस् टु लर्न्
धन्यवादः अस्तु अग्रे गच्छामः कर्कटस्य उपायः बहु सुलभ कथा सरलकथा सुन्दरकथा वा न वा इति न जानामि परन्तु अस्तु कोऽपि पठितुम् आरम्भं करोति वा अस्तु, उषा भगिनी श्रोतुं शक्नोति वा भगिनी? सा गतवती. अस्तु, निर्मला भगिनी.
कर्कटस्य उपायः. कस्मिंश्चित् वने कश्चन वटवृक्षः आसीत्. तस्मिन् वृक्षे बहवः बकाः वासं कुर्वन्ति स्म. वृक्षस्य कोटरे एकः कृष्णसर्पः अपि वासं करोति स्म.
अस्तु भगिनि, भवत्याः स्ववाक्ये वदति वा? सुलभः एव खलु. वृक्षः वटवृक्षः इत्युक्ते एकविधवृक्षः, बेनियन् ट्री इति. परन्तु अत्र बेनियन् ट्री इव नास्ति, चित्रे बेनियन् ट्री इव नास्ति, परन्तु वटवृक्षः इत्युक्ते बेनियन् ट्री.
वृक्षे बहवः वासं करोति.
क्रेन्.
वृक्षे कोटरे
ब्राञ्चेस्. नो नो, कोटरे इत्युक्ते अत्र अस्ति खलु, वृक्षस्य अधः. वृक्षस्य अधः बिलम् अस्ति, बिलस्य नाम अस्ति कोटर. कृष्णसर्पः वासं करोति. सम्यक्, स्वागतम् उषा भगिनि. इदानीमेव पश्यामि.
धन्यवादः.
धन्यवादः. अस्तु, अग्रे उषा भगिनी एव पठतु.
कृष्णसर्पः एकस्य बकस्य श्रावकान् खादितवान्. तदा सः बकः अत्यन्तं दुःखितः अभवत्. सः एकस्य सरोवरस्य तीरम् आगत्य नेत्राभ्याम् अश्रूणि मुञ्चन् स्थितवान्. तदा एकः कर्कटकः तं पृष्टवान्, मम किमर्थं भवान् रोदनं करोति इति. एकदा कृष्णसर्पः इत्युक्ते सर्प,
कृष्णवर्णयुक्तसर्पः,
ब्लाक्.
आम्,
एकस्य बकस्य डक् बक डक्
बकः इत्युक्ते एकः, एतदेव बकः. इट्स् क्रेन् खलु, क्रेन्.
ओ, ऐ सी, ओके. या, इट् लुक्स् लैक् अ क्रेन्. शावकान् इत्युक्ते,
शावकान् इत्युक्ते शिशु.
शिशु, तस्य शिशु खादितवान्.
शिशून्
कृष्णसर्पः खादितवान् तस्य श्रावकान्. तदा सः बकः अत्यन्तं दुःखितः अभवत्.
सम्यक्.
सः एकस्य सरोवरस्य तीरम् आगत्य नेत्राभ्याम् अश्रूणि मुञ्चन् स्थितवान्.
सरोवरः इत्युक्ते एतदेव सरोवरः, सरोवरस्य तीरं.
अश्रूणि
अश्रूणि मुञ्चन् नेत्रं, नेत्रतः, नेत्रात्. परन्तु नेत्रद्वयम् इति अस्ति, अतः द्विवचनं नेत्राभ्याम्. नेत्राभ्याम् अश्रूणि, अश्रूणि, एतदेव अश्रूणि. अश्रूणि मुञ्चन् इत्युक्ते गतम् इत्युक्ते टु बि रिलीस्ड् इति
तदा एकः कर्कटकः तं पृष्टवान् मामा भवान् रोदनं करोति कः अस्ति
कर्कटः एतदेव कर्कटः न न न क्राब्
कर्कटक किम् अस्ति
क्राब् भगिनि अत्र
क्राब्
अस्तु सो अत्र किम् अभवत् अत्र कृष्णसर्पः खादति शावकान् खादति अतः बकः किं कृतवान् कुत्र गतवान्
नदीतीरे
नदीतीरे गतवान् सरोवरस्य तीरं गतवान् गत्वा किं कृतवान्
नेत्राभ्याम् अश्रूणि मुञ्चन्
कृतवान् अथवा रोदितवान् रोदितवान् तत्र कः आगतवान्
कर्कटकः आगतवान्
आगतवान् आगत्य किं पृष्टवान्
पृष्टवान् आगतवान् च पृष्टवान्
किं पृष्टवान्
किमर्थं रोदति इति
किमर्थं रोदिति किमर्थं रोदिति इति पृष्टवान् अस्तु सागरि भगिनी धन्यवादः भगिनी सागरि भगिनी अग्रे
भगिनी अश्रूणि मुञ्चन् इस् टियर् फिल्ड् ऐस्
नो न अश्रुञ्चन् मीन्स् टु रिलीस् फार् एक्साम्पल् वयं वदामः खलु मोक्षम् इति मोक्षम् इस् रिलीस् from our
so the tears are actually coming down they are not tear filled
no no, no no the tears are released in the munch
okay
the tears are being released releseva samyak astu
tada bakah uktavan krishna sarpah mama shavakan kaditavan atah अहं दुःखितः अस्मि तस्य दुष्टसर्पस्य मारणार्थं भवान् एकम् उपायं वदतु इति बकः उक्तवान् अहं दुःखिता अस्मि यतः कृष्णसर्पः मम शावकान् खादितवान् कर्कटः भोः कृष्णसर्पः कथं मारणीयम् इति एकः उपायं वदतु इति उक्तवान्
अत्र व्याकरणदृष्ट्या दुःखितः इति पुल्लिङ्गपदं किमर्थं पुल्लिङ्ग बकः इति पुल्लिङ्ग अहं वदामि चेत् अहं दुःखिता अस्मि इति अहं परन्तु बकः दुःखितः अस्ति बकः वदति अहं दुःखितः अस्मि इति अस्तु अग्रे
किमर्थं
बहुवचनं नास्ति किमर्थम् इति बकः एव परन्तु सर्वे दुःखिताः भवन्ति लैक् दट्
परन्तु अत्र बक एकम् एकमेव वदति
आम् एकः एव बकः अतः दुःखितः एकः एव दुःखितः इति एकवचनमेव
करेक्ट्
इट् इस् करेक्ट् अहं दुःखितः अस्मि सम्यक् एव भगिनि
should not tada bakah be singular, because one crane that is talking, right?
Amam singular eva kalod
bakah singular ima
तदा बकः दुःखे सो अत्र बकाः परन्तु अत्र पश्यतु बहवः बकाः सन्ति अत्र बकाः वासं कुर्वन्ति
तत्र बहुवचनम् अस्ति अत्र
आमां सो एकः एव बकः सरोवरं गत्वा सर्वं वदति सम्यक् सो अत्र बकः दुःखितः अस्ति परन्तु दुःखम् अनुभवति दुःखम् अनुभवति दुःखितः अस्ति तस्य दुःखम् अस्ति सो देर् आर् त्री वेस् अहं दुःखम् अनुभवामि मम दुःखम् अस्ति अहं दुःखिता अस्मि
But are you saying here it should be Dukkitaha or is it
Dukkitaha? No, Dukkitaha.
Dukkitaha Samyakeva.
Samyakeva. Vakaha Dukkitaha Asti. Aham Dukkitaha Asmi iti Vakaha Vadati. Aham Kim Vadami Tukte Strilinga Asti Che Dukkita Bhavati iti Aham Vadami. Aham Dukkita Asmi.
परन्तु अत्र बकः पुंलिङ्ग वा
आं पुल्लिङ्ग बकः अस्ति खलु अह बकः पुल्लिङ्ग एव
अस्तु
अस्तु अग्रे सविता भगिनी
आं भगिनि तदा ककटकः चिन्तितवान् वस्तुतः एषा बकः अस्माकं जातिवैरी अतः अहं कृष्णसर्पं मारयितुं तादृशम् उपायं वदामि येन बकस्य अपि मरणं भवेत् इति तथा कर्कटकः चिन्तितवान् वस्तुतः एषः बकः अस्माकं जातिवैरः कर्कटः चिन्तितवान् बकः कर्कटस्य जातिवैरी अतः अहं कृष्णसर्पं मारयितुं तादृशम् उपायं वदामि कर्कटः कृष्णसर्पस्य मारणार्थम् एकम् उपायं वदति येन बकस्य अपि मरणं भवेत् इति कर्कटः चिन्तितः बकस्य अपि मरणं भवेत्
सम्यक्
एकम् उपायं सः सां प्रेषयतु
उत्तम सो एकेन उपायेन सर्पमपि मरणं प्राप्नोति बकः अपि
मरणं प्राप्नोति
सम्यक् तादृश उपायम् अहं वदामि इति सः चिन्तयति किमर्थम् इत्युक्ते बकः मां खादति मामेव न मम जाति जनाः जनान् सर्वान् खादयति खादति अतः अस्माकं जाति शत्रुः अस्ति बकः इति सः चिन्तयति सम्यक् शारदा भगिनी
अनन्तरं सः उक्तवान् माम भवान् एतस्य नकुलस्य बिलद्वारं कृष्णसर्पस्य कोटरपर्यन्तम् अपि मत्स्यखण्डान् प्रक्षिप्तु नकुलः तेन एव मार्गेण आगत्य कृष्णसर्पं मारयिष्यति इति कर्कटः एकम् उपायम् उक्तवान् एतस्य नकुलस्य बिलस्य द्वारतः कृष्णसर्पस्य कोटरतः कोटरपर्यन्तं पीस् आफ् फिश् मत्स्यखण्डान् फिश् ऐ थिङ्क् ऐ अस्यूम् इट् इस् थ्रो आर् कीप् प्रक्षिपतु
क्षिपतु प्रक्षिपतु तत्र स्थापयतु इति सम्यक्
नकुलः आगच्छति आगमिष्यति एतत् मार्गे अथवा कृष्णसर्पं मारयिष्यति
मारयिष्यति अस्तु सम्यक् सो नकुलः इत्युक्ते एतदेव नकुलः
मङ्गूस्
मङ्गूस् मङ्गूस् नकुलः सर्पस्य वैरि खलु सर्पजाति वैरि शत्रुः सो अतः नकुलः सर्पं मारयति मारयिष्यति कथं कथं जानाति सर्पः तत्र अस्ति इति मत्स्यखण्डान् खादित्वा कृष्णसर्पस्य कोटरं प्रति आगच्छति तत्र कृष्णसर्पः बहिः आगच्छति सर्पं मारयति मारयिष्यति अनन्तरं बकमपि मारयिष्यति इति अस्तु अग्रे
नकुलः इत्युक्ते
मङ्गूस्
मङ्गूस्
अस्तु जयश्री भगिनी
बकः सैव कृतवान् नकुलः मत्स्यखण्डान् खादन् अग्रे अग्रे आगत्य कृष्णसर्पस्य कोटरं दृष्टवान् कृष्णसर्प मार्पटवान् अनन्तरं शनैः तस्मिन् वृक्षे स्थितवान् सर्वान् बकान् अपि मारितवान् अनन्तरः नकुलः
प्रथमं बकः किं कृतवान्
बकः मत्स्यखण्डान् कोटरस्य
कोटरतः बिलतः क्षम्यतां बिलतः प्रक्षिप्तवान् बिलतः कोटरपर्यन्तं प्रक्षिप्तवान् अस्तु अत्र एव बिलम् अस्ति खलु मङ्गूस् बिले वसति भूमौ अस्ति खलु बिलं होल् होल् अथवा बरो इति वदामः खलु बरो बिलतः कोटरपर्यन्तं मत्स्यखण्डान् प्रक्षिप्तवान् बकः प्रथमं तथैव कृतवान् तथैव इत्युक्ते यथा बिलतः कोटरपर्यन्तं मत्स्यखण्डान् प्रक्षिप्तवान् अनन्तरं किम् अभवत्
अनन्तरं नकुलः मत्स्यखण्डान् खादान् अपि
सम्यक् खादन् सम्यक्
खादन् अपि सर्पस्य कोटरः गच्छितवान्
गतवान् कोटरं गतवान् गत्वा किं कृतवान्
कृष्णसर्पं कृष्णसर्पः कृष्णसर्पं मारितवान्
मारितवान् सम्यक् कृष्णसर्पं मारितवान्
भगिनी बिला एण्ड् नकुल आर् द सेम्
न नकुलः अत्र अस्ति नकुलः बिले वसति नकुलस्य गृहम् अस्ति बिलम् बिले वसति नकुलः एतत् एतदेव नकुलः नकुलः बिले वसति अस्तु जयश्री भगिनि अन्तिम अन्तिमवाक्यम् अनन्तरम्
अनन्तरं नकुलः तस्मिन् वृक्षे बकाः पश्यन्ति
बकान् पश्यन्ति सम्यक्
बकान् पश्यन्ति
पश्यति
पश्यति अपि सर्वान् बकान् मारितवान्
मारितवान् सम्यक् मारितवान् सम्यक् कर्कटस्य मत्स्य इत्युक्ते मीनः खलु मीनखण्डान् खण्डान् इत्युक्ते लिटिल् बिट् पीसस्
पीसस्
आफ्
फिश्
शिलाखण्ड इत्युक्ते पीसस् आफ् राक् शिला एव अन्य अन्यप्रश्नः सागरी भगिनि
आं भगिनि खादन् नो नो इन्स्टेड् आफ् देट् केन् वि से खादित्वा खादित्वा अग्रे अग्रे
खादित्वा खादित्वा अनन्तरं खादित्वा अनन्तरम् इति अर्थे भवति खादन् इत्युक्ते खादनेव समये वैल् इति इति अर्थे
इस् इट् शत्रु
शत्रुप्रत्यये आम्
अस्तु भगिनि धन्यवादः
धन्यवादः अन्य कोऽपि पठितुम् इच्छति वा लता भगिनी परमेश्वर महोदय मालती भगिनी
बकः नकुलः मत्स्यगण्डान् खादत् खादन् अग्रे अग्रे आगत्य कृष्णसर्पस्य कोटरं दृष्टवान् कृष्णसर्पं मारितवान् अनन्तरं शनोः तस्मिन्
वृक्षे
शनैः तस्मिन् वृक्षे स्थितान् सर्वान् बगान् अपि मारितवान् बगः ऐषैः कृतवान्
अस्तु तथा एव कृतवान्
नकुलः मत्स्यगण्डान् खादितवान् अग्रे कृष्णसर्पस्य कोटरं दृष्टवान्
कोटरं
दृष्टवान् कृष्णसर्पं मारितवान् कृष्णसर्पं मारितवान् अनन्तरं शनैः शनैः तस्मिन् वृक्षे सीता सर्वान् बकान् अपि मारितवान् अनन्तरं तस्मिन् वृक्षे सर्वे बगान् अपि मारितवान्
सम्यक् 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 महोदय अन्य कोऽपि पठितुं वक्तुम् इच्छति वा लता भगिनी मालति भगिनी नो चेत् अग्रे गच्छामः
अग्रे गच्छामः भगिनि
अस्तु अस्तु धन्यवादः अस्तु प्रथमाविभक्ति भगिनि शनैः शनैः इत्युक्ते उत्तमप्रश्नः अनन्तरं शनैः शनैः इत्युक्ते एकसमये सर्वान् बकान् न मारितवान् इति अर्थे इत्युक्ते अहं चिन्तयामि नकुलः वृक्षम् आरोपयितुं न शक्नोति, आरोहणं कर्तुं न शक्नोति. यदा बकः अधः आगच्छति तदा सः मारयति इति. शनैः शनैः इत्युक्ते मन्दं 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 स्लोलि स्लोलि युनो. शनैः मीन्स् साफ्ट्लि, परन्तु साफ्ट्लि इति अर्थे अत्र नास्ति, अत्र स्लोलि इति अर्थे, मन्दं मन्दम् इति अर्थे.
धन्यवादः,
धन्यवादः, उत्तम प्रश्नः भगिनि. अस्तु, इदानीं गीतासोपानविषये पश्यामः. वयं प्रथमाविभक्ति रूपाणि पठितवन्तः. प्रथमाविभक्तिं कुत्र उपयोगं कुर्मः इत्युक्ते वाक्ये न्यूनातिन्यूनं पदद्वयम् आवश्यकम्. एकमस्ति क्रियापदम्, अन्यत् अस्ति कर्तृपदम् इत्युक्ते कर्ता. कर्ता एव प्रथमाविभक्तिरूपं स्वीकरोति. क्रियापदं कर्तृपदम् अनुसृत्य भवति. यथा बालकः गच्छति, बालकः एकवचनम्, अतः गच्छति. बालकाः इति बालिकाः इति वदामः चेत् गतवत्यः क्रियापदं नास्ति, परन्तु क्रियापदम् इव भवति. बालिकाः इति अनुसृत्य स्त्रीलिङ्गबहुवचनम्. गतवत्यः सन्ति, एवं सन्ति इति भवति, अथवा आसन् इति भवति. बालकः अस्ति, बालिकाः सन्ति इति भवति. एतस्य प्रयोगस्य नाम अस्ति कर्तरिप्रयोगः, इत्युक्ते कर्तृसम्बन्धः भवति. अत्र कर्तृपदस्य प्रधानम् अस्ति. प्रधानं कर्तृपदम् उप कर्तृपदं यथा अस्ति तथा एव क्रियापदमपि भवति, अनुसृत्य भवति. कर्तृपदम् अनुसृत्य भवति. अवगच्छन्ति वा अहं यत् पठितवती?
आं भगिनि.
उत्तम, अस्तु. प्रश्नः अस्ति चेत् पृच्छन्तु. वयम् एतत् अपि पठितवन्तः पूर्वं. वयं जानीमः रामः रामौ रामाः, रमा रमे रमाः, ज्ञानं ज्ञाने ज्ञानानि, एतत् सर्वं पठितवन्तः. अस्तु, वयं गीतासोपानं प्रति गच्छामः. अस्तु, एतत् सर्वं पठितवन्तः खलु. कविः कवी कवयः पुनरेकवारं. इदानीम् अत्र गतवर्गे वयम् अत्र स्मः. भगिनि, अहं दर्शयामि एकनिमिषम्. सो अत्र भवान् इति अस्ति चेत् अहम् आवां वयम्, उत्तमपुरुष. त्वं युवां यूयं मध्यमपुरुषः इति वदामः. एतत् नूतनविषयः खलु, त्वं युवां यूयं, नूतनविषयः. भवान् भवन्तौ भवन्तः वयं जानीमः. भवान् योधा, भवन्तौ योधारौ, भवन्तः योधारः. योधा योधारौ योधारः योधा. सो अत्र योधा इति कीदृशपदम्? कुम्भकारः इति कीदृशपदम्? पुल्लिङ्गम्, अकारान्त पुल्लिङ्गपदम्. सो अत्र अन्ते कुम्भकार इति मूलरूपं भवति, कुम्भकार. अतः अकारान्त पुल्लिङ्गपदम् इति वदामः. कुम्भकार विसर्ग विना मूलरूपं भवति. सो अतः कुम्भकार इति वदामः, राम इव. सो अत्र रामः रामौ रामाः, तत् अनुसृत्य कुम्भकारः कुम्भकारौ कुम्भकाराः, रामः इव. रामः रामौ रामाः, कुम्भकारः कुम्भकारौ कुम्भकाराः इति अस्ति. अस्तु, अत्र अपि पाण्डवः अपि अकारान्तपुल्लिङ्गपदम्. पाण्डवः पाण्डवौ पाण्डवाः अन्तिमवर्णं स्वीकृत्य वः वौ वाः इति भवति. पाण्डवः पाण्डवौ पाण्डवाः इति भवति. अत्र सर्वनामपदमस्ति अहम् आवां वयम् इति. अत्रापि अन्यसर्वनामपदम् अत्र एतत् अस्ति उत्तमपुरुषः अहम् आवां वयम्. एतत् अस्ति मध्यमपुरुषः साक्षात् वदामः त्वं कुम्भकारः युवां कुम्भकारौ यूयं बहुवचनं कुम्भकाराः भवान् भवन्तौ भवन्तः. एतत् अपि वयं जानीमः खलु भवान् इति पुरुषः कः उत्तमपुरुषः वा मध्यमपुरुषः वा प्रथमपुरुषः वा प्रथमपुरुषः भवान् भवन्तौ भवन्तः. अत्र योधा इति अस्ति कीदृशपदम्
बहुवचनं प्रथमपुरुष
योधा ऋकारान्तपदं योधा इति अकारान्तपदं नास्ति खलु. अत्र वयं पश्यामः चेत् त्वं कुम्भकारः इति अस्ति अह इति अस्ति, परन्तु अत्र अह नास्ति. सो अत्र क्लू एवम् अस्ति, वयं जानीमः पुल्लिङ्गः इति. कथं जानीमः पुल्लिङ्गपदम्? भवान् योधा इति अस्ति, वयं कथं जानीमः
पुल्लिङ्गपदम्?
भवान् इति अस्ति, अतः वयं जानीमः योधा इति पुल्लिङ्गपदं. नो चेत् राधा इव अस्ति, लता इव, परन्तु तथा नास्ति. किमर्थम् इत्युक्ते भवान् इति पुल्लिङ्गपदम्, अतः भवान् योधा एतादृशम् आगच्छति चेत् पिता इव ऋकारान्तपदम्. पिता दाता एतादृशपदं भवति. सो अतः ऋकारान्तपदम्. ऋकारान्तपदं कथं भवति? पिता पितरौ पितरः, परन्तु आ इति अस्ति. सो अत्र ऋकारान्तः अस्ति चेत् द्विविधविभक्तिरूपं भवति. एकम् अस्ति पिता पितरौ ह्रस्वकार पितरौ पितरः इति भवति. अन्यत् एकम् अस्ति दीर्घ आकारः, यथा अत्र अस्ति योधारौ योधारः. सो अत्र साधारणनियमः सर्वदा इति न वदामि, क्रियापदतः आगच्छति चेत् दीर्घ आकारः भवति. योधा युद्धं कर्तुम् इच्छा अस्ति, एतस्य युद्धं कर्तुम् इच्छा अस्ति, अतः योधा. क्रियापदतः धातुतः आगच्छति चेत् दीर्घम् आकारः भवति योधा योधारौ योधारः, परन्तु पिता पितरौ पितरः एवं भवति. दाता दाता धातारौ धातारः एवं भवति साधारण. युद्ध दातु युद्धं कर्तुम् इच्छति युद्ध
युद्ध. धन्यवाद.
धन्यवाद. अस्तु,
सिमिलर् टु दाता
दातृ दातुम् इच्छति दाता.
योद्धा इस् आल्सो सिमिलर् टु दाता.
आम् 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 उत्तमप्रश्नः भगिनि योद्र सो अत्र भवती गोपिका नूतनविषयः नास्ति भवती भवत्यौ प्रायः नूतनविषयः भवती भवत्यौ भवत्यः लेखनी लेखन्यौ लेखन्यः इव सो अत्र भवान् प्रथमाविभक्ति एकवचनरूपं परन्तु मूलरूपम् अस्ति भवत् एव भवत् भवत् शब्दः भवान् भवति पुल्लिङ्गे स्त्रीलिङ्गे भवती भवति भवती इति भवत् शब्दस्य स्त्रीलिङ्गपदं परन्तु भवति इति क्रियापदरूपं क्रिया भवति अत्र भवति सो अतः उच्चारणं सम्यक् भवतु भवती भवति इति प्रश्नः अस्ति वा नास्ति इति मन्ये अस्तु अभ्यासं कुर्मः वा अस्तु लता भगिनी आरम्भं करोति वा भवती न पठितवती
कृतवन्तः खलु भगिनि
एवं वा अस्तु
पुटं षोडशपुटं षोडश अभ्यास
अस्तु अस्तु षोडश कृतवन्तः आम् आम् आं भगिनि षोडश एव धन्यवादः लता भगिनि
भवान् सिद्धः भवन्तौ सिद्धौ भवन्तः सिद्धाः
भवन्तः
भगिनी कृतवन्तः भगिनि वि डिड् अप् टु 16
एवं वा
वि हैव फिनिश्ड् अप् टु वधूः ऐ हैव जस्ट् मार्क्ड् इट् इन् मै बुक्
वेरि गुड् भगिनि बहु धन्यवादः बहु धन्यवादः अस्तु अप् टु 16 कृतवन्तः अस्तु
भगिनी केन् वि स्टिल् डु इट्
Yeah, I mean, it's the same thing, Bhagini. Huh? You still want to do it again?
Yeah, I didn't mark it on time. I did from 2 onwards. Maybe. Okay, I'll watch the recording later.
Asta, so we will just do some...
just as a warm-up.
Asta, warm-up. So, atra api pashyanta, shrota. श्रोतारौ श्रोतारः श्रुधातुतः आगच्छति श्रोतारौ श्रोतारः मालति भगिनि ज्ञाता कथं भवति भगिनि मालति भगिनि अस्ति वा नास्ति अस्तु उषा भगिनि
ज्ञातारौ
ज्ञातारौ
भवन्तौ ज्ञातारौ भवन्तः ज्ञातारः
ज्ञातारः अस्तु निर्मला भगिनी दाता दातारः अस्तु सो अत्र दाशरथिः सागरी भगिनी
आं भगिनि भवान् दाशरथिः भवन्तौ दाशरथी भवन्तः दाशरथः दाशरथयः
दाशरथी दाशरथयः
रथयः
रथयः अस्तु सविता भगिनी
आं भगिनि भवान् अतिथिः भवन्तौ अतिथी भवन्तः अतिथिः
सो अत्र हरिशब्दः कथं भवति हरिः
हरिः हरौ हरयः
हरिः हरि
हरिः हरौ हरयः
हरौ न हरिः हरी हरय हरिः हरी हरयः
हरयः अतिथि अतिथि अतिथयः
अतिथयः सम्यक् हरिः हरी हरयः अतिथिः अतिथी अतिथयः दाशरथिः दाशरथी दाशरथयः अस्तु सम्यक् शारदा भगिनी
भवान् गुरुः भवन्तौ गुरु भवन्तः गुरवः
भवन्तः गुरवः एतादृश स्टाण्डर्ड्स् मनसि स्थापयतु गुरुः गुरु गुरवः हरिः हरी हरयः एतादृशं जयश्री भगिनि पटवः गुरुः गुरु गुरवः इव सम्यक्
पटु
पटु
पटुः पटुः पटु पटवः
पटुः पटु पटवः अस्तु महिला लता भगिनि महिला
महिला महिले महिलाः
सम्यक् महिला महिले महिलाः भवती भवत्यौ भवत्यः भवत्यः सम्यक् लता भगिनी
उक्तवती
लता भगिनी अभवत् परमेश्वर महोदय
शिक्षक शिक्षके शिक्षकाय
सो अत्र महिला महिले महिलाः तादृशमेव अत्र अपि अस्ति शिक्षिके इति अस्ति
शिक्षिके इति स्त्रीलिङ्गि न
स्त्रीलिङ्ग
शिक्षिके शिक्षिका शिक्षिके शिक्षिकायः
शिक्षिकाः एव
सोरि शिक्षिकाः
महिला महिले महिलाः
शिक्षिका शिक्षिके शिक्षिकाः
शिक्षिकाः भवती अपि अपि योजयित्वा वदति वा भवती शिक्षिका
भवती शिक्षिका भवन्तौ शिक्षिके
शिक्षिके
शिक्षिके भवत्यः शिक्षिकाः
भवत्यः शिक्षिकाः अस्तु उषा भगिनी
भवती भगिनी भवत्यौ भगिनी भगिनी भवत्यः भगिन्याः
पुनः वदतु भगिनि लेखनी कथं भवति
लेखनी लेखनी ओ लेखनी 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 लेखन्यः
तथा न भवति खलु भवती इव इव भगिनी अपि अस्ति भवती इव लेखनी अपि अस्ति भवती कथम् अस्ति अत्र भवती
महिला
न भवती
शिक्षिकी
भगिनि प्रथमं भवती इति पदं वदतु भवती
भवती भगिनी
न भवती भवत्यौ
भवत्यः
भवत्यः भवती भवत्यौ भवत्यः भवती इव भगिनी अपि अपि भवति समानरूपम्
भवत्यौ भगिनी
वदतु भवती भगिनी अत्र अत्र किं किं भवति
कुत्र
अत्र
भवत्यौ भवत्यौ
भवत्यौ भगिनी कथं भवति भगिनी
भगिनी ऐ एम नॉट श्योर
भगिन्यौ
भगिन्यौ ओके
भवती यथा भवत्यौ भवति तथा भगिनी अपि भगिन्यौ इति भवति भवत्यौ भगिन्यौ
ओके एंड भवत्यः भगिन्याः
किमर्थं याः भवति भवत्यः
भवत्यः भगिनी
भगिनी कथं भवति भगिनी इति पदं परिवर्तनं भवति खलु भगिनी इति पदं पदमपि
भवत्याः
इति भवती उक्तवती भवत्याः सम्यक् भगिन्
भगिन्यः
भगिन्याः युसेट् भगिन्याः भगिन्यः भवती भगिनी भवत्यौ भगिन्यौ भवत्यः भगिन्यः युवती इति अस्ति चेत् कथं भवति भवती युवती अनन्तरं
युवत्यौ
भवत्यौ युवत्यौ
युवत्यः
भवत्यः युवत्यः मिलित्वा वदति चेत् मनसि तिष्ठति भगिनि भवत्यः युवत्यः अस्तु अग्रे निर्मला भगिनि भवती माता
भवत्यौ मातरौ
मातरौ सम्यक्
भवत्यः
सम्यक् मातरः सम्यक् मातरौ मातरः मातरौ मातरः माता मातरौ मातरः अत्र ह्रस्व आ एव अस्ति मातरौ मातरः इदानीं स्वसा इति अस्ति चेत् स्वसा स्वसा धातुतः न आगच्छति परन्तु स्वसारौ इति भवति स्वसृ स्वसृ इति मूलरूपं परन्तु स्वसारौ स्वसारः इति भवति अग्रे 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 वयं पठामः चेत् वयं अवगन्तुं शक्नुमः अपि च मनसि अपि तिष्ठति माता मातरौ स्वसा स्वसारौ इति भवति इति अस्तु अग्रे सागरी भगिनी अत्र वद्वौ इति अस्ति अतः प्रथमा विभक्तिरूपं किं भवति वधूः सम्यक् वद्वः सम्यक् वद्वः कथं जानाति भगिनी वद्वौ इति अस्ति इति भवत्यौ इति अस्ति चेत् दीर्घ भवती अत्र वकारः आगच्छति चेत् ऊकारः
आं भगिनि
सो अत्र क्लू एवम् अस्ति भवती अस्तु वधूः वध्वौ वध्वः वधूः वध्वौ वध्वः अस्तु इदानीं त्वम् उपयुज्य त्वं युवां यूयम् ओके त्वं युवां यूयम् इति अस्ति सविता भगिनी
आं भगिनि
भक्तः भक्तौ भक्ताः एतत्
भक्तः युवां भक्तौ यूयं भक्ताः
अस्तु एतत् करोतु भगिनि कविः
कविः कव्यौ कव्यः
कविः
कविः
हरिः हरयः
कविः 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 कवयः त्वं कविः युवां कविः कवि त्वं कविः युवां कवि यूयं कवयः.
सम्यक्. कविः कवी कवयः कवयः अस्तु. अन्य किं स्थितप्रज्ञाति? अस्तु एतत् अग्रे शारदा भगिनि. सो अत्र तानि अस्तीनि इति अस्ति.
तत् अस्ति. ते अस्तीनि.
सम्यक्. सो अत्र ते इति अत्र मध्ये दीर्घम् अस्ति, अन्ते ह्रस्व अस्ति, परन्तु द्विवचने विपरीतं भवति. अस्ति नि इति भवति. ते अस्तीनि, तानि अस्तीनि. सो अत्र तानि इति अस्ति, अतः नपुंसकलिङ्गं तत् इति भवति. तत् सत्ते तानि. स्मरन्ति वा सर्वे न वा?
अस्ति अत्र किं भगिनि?
अस्ति इत्युक्ते बोन्. बोन्
बोन् ओके
बोन्.
धन्यवादः.
ऐ नो स्थितप्रज्ञः इति अकारान्तपदम्, अतः अहं त्यक्तवती. सो अत्र एकवारं पठामः. अकारान्तपुल्लिङ्ग वयं जानीमः. वेदः वेदौ वेदाः, पुरुषः पुरुषौ पुरुषाः. सो नूतनविषयः अस्ति अत्र कविः कवी कवयः, मुनिः मुनी मुनयः. इकारान्तपदम् इ अस्ति चेत् दीर्घ इ भवति, यौ औ इति न भवति. कविः कवी कवयः. एवमेव उकारान्त अस्ति चेत् कथं भवति? कोऽपि पठति वा कृपया?
उकारान्तपुल्लिङ्गशब्द वायुः वायू वायवः.
वायू वायवः उकारान्त दीर्घं भवति. अस्तु वायवः. गुरुः
गुरुः गुरु गुरवः
गुरवः. अस्तु अत्र भगिनी प्रश्नः कः?
तर्टीन्
भगिनि. तर्टीन्. सो अत्र सा मुनिः अस्ति चेत् कथं भवति? मुनिः मुनी मुनयः. सारथिः
सारथी
सारथयः. सारथिः सारथी सारथयः. हरिः
हरिः
हरयः. हरिः हरयः. त्रीणि रूपाणि अपि वदन्तु. अस्तु सेनापतिः
सेनापतिः सेनापती सेनापतयः.
सेनापतयः. अतिथिः
अतिथिः अतिथयः
अतिथयः. अस्तु गिरिः
गिरिः गिरिः.
सम्यक्. गिरिः गिरी गिरयः. ऋषिः
ऋषिः
ऋषि ऋषयः ऋषयः. सम्यक्. उकारान्तपदं वायुः
वायुः वायु
वायवः. सम्यक्. साधुः
साधु
साधवः
साधवः. साधुः साधु साधवः. शत्रुः
शत्रुः
शत्रुः. सम्यक्. धनुः सर्वे वदन्तु तथा एव मनसि तिष्ठति. भ्राता
भ्राता
भ्रातरौ
भ्रातरः. सम्यक् भ्रातरौ भ्रातरः स्थितप्रज्ञः इति अकारान्तपदम् इव खलु वेद पुरुषः इति अस्ति चेत् कथं भवति पुरुषः
पुरुषः पुरुषौ पुरुषाः
पुरुषाः स्थितप्रज्ञः आरौ इति ऋकारान्तपदे एव भवति पिता पितरौ रौ अत्र रौ रकार रेफा नास्ति परन्तु ऋकारान्तपदम् अतः रेफा भवति भ्राता भ्रातरौ अत्र वेदः वेदौ दौ भवति रौ न भवति सैनिकः सैनिकौ भवति परन्तु अत्र दाता दाता रौ कुत्रापि रौ आगच्छति ज्ञाता वदतु ज्ञातारौ ज्ञातारः ऋकारान्तपदं किमर्थं ज्ञाता होता दाता इति अस्ति हर्ता वक्ता एतादृशं पदं पुल्लिङ्गे अस्ति चेत् ऋकारान्तपदम् इति अनुमानं कर्तुं शक्नुमः वयम् अस्तु वा अस्तु पुनः तत्र गच्छामः कर्ता कर्तारौ कर्तारः वयम् आकारान्तस्त्रीलिङ्गं जानीमः माला माले मालाः गदा गदे गदाः मापिका मापिके मापिकाः लता
लते
लते महिला
महिले महिलाः
वयं जानीमः आकारान्तपदम् अग्रे गच्छामः इदानीम् इकारान्तस्त्रीलिङ्गपदम् इकारान्तस्त्रीलिङ्गपदं कथं कथं भवति
मतिः
मतिः मतयः
मतयः कविः इव कविः इव कविः कवी कवयः मतिः मती मतयः कथं जानीमः पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति
कोष्ठं कोष्ठकं दृष्ट्वा भगिनि
कोष्टकं दृष्ट्वा अथवा वयं सर्वनामपदं दृष्ट्वापि ज्ञातुं शक्नुमः
वाक्ये प्रयोगं कर्तुमपि जानीमः
निश्चयेन वाक्यं दृष्ट्वा वयं जानीमः सा मतिः सा तिथिः एषा तिथिः एतादृशम् अस्ति चेत् स्त्रीलिङ्गम् इति जानीमः नो चेत् रूपं दृष्ट्वा न जानीमः मतिः मती मतयः तिथिः तिथी तितयः कविः कवी कवयः समानरूपमेव एव भवति ईकारान्तपदम् अस्ति चेत् पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा
स्त्रीलिङ्गं
स्त्रीलिङ्गं स्त्रीलिङ्गम् नदी नद्यौ नद्यः नदी नद्यौ नद्यः इति भवति ईकारान्तः स्त्रीलिङ्गे एव भवति अन्य कुत्रापि न भवति ओके एवमेव आकारान्तपदं स्त्रीलिङ्गे एव भवति ईकारान्तस्त्रीलिङ्गे एव भवति एवमेव ऊकारान्त स्त्रीलिङ्गे एव भवति ऊकारान्तस्य वैशिष्ट्यं विसर्गः अपि भवति वधूः चमूः ब्रूः एवमेव भवति अन्य कुत्रापि न भवति आकारान्त विसर्गः नास्ति ईकारान्तपदे विसर्गः नास्ति परन्तु ऊकारान्तपदे प्रथमाविभक्तिरूपं विसर्गः भवति
प्रकोष्ठकं that one
this one is in my slides, Bhagini. I will send it in the WhatsApp group. Slides madhye asti.
It's a good practice, no, taking each
So, अत्र पदं पश्यतु कोष्टके एतत् पश्यतु वदतु अत्र रज्जुः रज्जु रज्जवः उकारान्तपदं धेनुः धेनू धेनवः वसुः कथं भवति वसुः वसुः वसू वसवः गुरुः गुरु गुरवः इव अन्य किमपि भेदः नास्ति परन्तु सा चञ्चुः इति वदामः चेत् वयम् अनुमानं कर्तुं शक्नुमः स्त्रीलिङ्गपदम् इति
चञ्चुः इत्युक्ते
चञ्चुः इत्युक्ते खगस्य मुखं चञ्चुः बीक् बीक् इति अस्तु एवमेव वधूः अत्र दीर्घ ईकारान्त अस्ति चेत् यौ भवति भगिनी भगिन् यौ नदी नद् यौ यकारः कुत्रापि आगच्छति यौ अस्तु वा ईकारान्त पदमस्ति चेत् यौ आगच्छति श्रीः अत्र विसर्गः अस्ति प्रथमाविभक्तिरूपे विसर्गः अस्ति लक्ष्मीः स्त्रीः एतादृशपदं श्रियौ अत्रापि श्रियौ प्रथमाविभक्तिरूपे एव भेदः अस्ति एकवचने परन्तु अग्रे गत्वा यौ एव स्त्रियौ अत्र श्रीः अस्ति अत्र श्रियौ श्रियः श्रियौ श्रियः अत्रापि यौ एव अस्ति ई अस्ति चेत् यौ एवमेव ऊ अस्ति चेत् वौ भवति वधूः वद् वौ चमूः चं वौ ऊकारान्त अस्ति चेत् बकारः भवति अपि च वौ भवति ईकारान्त अस्ति चेत् यकारः भवति यौ भवति ऊ अस्ति चेत् वौ भवति अत्र पश्यतु ब्रूः कथं भवति ब्रूः ब्रुवौ हनूः ब्रूः ब्रुवौ ब्रुवः वद्वः ब्रुवः सूनूः सून्वौ सून्वौ भवति एवमस्ति सूनूः खलु सूनूः सूनूः इत्युक्ते अहं विस्मरामि अहं चिन्तयामि पुत्रः अन्य न वा अहं कोष्टके पश्यामि कोष्टे पश्यामि कोष्टे सूनु सूनु इत्युक्ते सन् आर् डाटर् सूनुः इत्युक्ते किम् अग्रे वदामि भगिनि सूनु अत्र किं भवति सून्वौ अग्रे सून्वः चमूः चम्वौ चम्वः अत्र ऊ अस्ति खलु मू अस्ति चेत् म्वः इम्बौ इम्बः नू अस्ति चेत् न्वौ न्वः सून्वौ सून्वः चमूः चम्वौ चम्वः वधूः वद्वौ वद्वः एवं भवति अग्रे डाटर् अथवा सन् अथवा डाटर् सन् बहु बहु व्यत्यासः भेदः अस्ति परन्तु सूनु इति अस्ति सूनु अपि अस्ति सूनु अपि अस्ति अहमपि न दृष्टवती प्रायः मे बी इट्स् अ मिस्टेक् न जाना अग्रे पश्यामि दोषः अस्ति चेत् अहं त्यजामि अस्तु अस्तु सो अत्र माता मातरौ मातरः ऋकारान्त स्त्रीलिङ्गपदं परन्तु वयं पिता इति पश्यामः चेत् अत्र भेदः एव नास्ति पिता पितरौ पितरः अत्रापि माता मातरौ मातरः स्वसा स्वसारौ स्वसारः अत्र कर्ता कर्तारौ कर्तारः एवमेव स्वसा स्वसारौ स्वसारः अस्तु नपुंसकलिङ्ग अकारान्तपदं जानीमः अयनम् अयने अयनानि वनं वने वनानि पुस्तकं पुस्तके पुस्तकानि अन्य किमपि वदतु नपुंसकलिङ्गपदं नयनानि सम्यक् नेत्रं नेत्रे नेत्राणि फलानि इदानीम् इकारान्तपदमपि अस्ति उकारान्तपदमपि अस्ति इकार उकार अस्ति चेत् विसर्गः न भवति परन्तु स्त्रीलिङ्गे विसर्गः भवति मतिः धेनुः पुल्लिङ्गे अपि विसर्गः भवति कविः वायुः इति परन्तु नपुंसकलिङ्गे विसर्गः न भवति स्त्रीलिङ्गे ईकारान्त अस्ति चेत् विसर्गः नास्ति ऊकारान्तपदमस्ति चेत् विसर्गः भवति वयं पुनः पुनः पठामः चेत् अग्रे ज्ञातुं शक्नुमः अस्तु अत्र दधि दधिनी दधीनि वयं कथं स्मरामः इत्युक्ते पुस्तकं पुस्तके पुस्तकानि अन्ते ह्रस्वः भवति सर्वत्र ह्रस्वः अन्तिम वर्णे ह्रस्वः अस्ति चेत् मध्यवर्णे दीर्घः भवति परन्तु द्विवचने विपरीतदिशि भवति दधीनि परन्तु द्विवचने दधिनी वस्तूनि उकारान्तपदं वस्तूनि द्विवचने वस्तूनि इति भवति दधि दधिनी दधीनि वस्तु वस्तूनि वस्तूनि इति अस्तु अस्तु पुनः अत्र आगच्छामः अस्तु वयम् अत्र स्मः खलु तत् अस्ति ते अस्तिनि तानि अस्तीनि अस्तु अग्रे का वदति इदानीं न स्मरामि अहम् अस्तु मिलित्वा वदामः सा विभूतिः अत्र किं भवति विभूति सम्यक् तयः सम्यक् तीतयः तिहितीतयः सम्यक् एते प्रमातिनी एकः एव वदतु अथवा एका एव वदतु परमेश्वर महोदय वक्तुं शक्नोति वा अत्र किं भवति अत्र एते मध्ये आगच्छति चेत् अत्रापि नी इति अस्ति प्रमातिनि वदतु इदानीं वदतु एतत् सम्यक् एव प्रमातीनि अस्ति इति अस्ति खलु प्रमातीनि स्त्रीलिङ्ग अपि अस्ति सम्यक् स्त्रीलिङ्ग अपि अस्ति सम्यक् एव परन्तु अत्र रूपं दृष्ट्वा वयं वक्तुं शक्नुमः प्रमाति इति स्त्रीलिङ्गे अस्ति चेत् एवं भवति खलु प्रमातिनिः इति प्रमातिनिः प्रमातिनी प्रमातिनयः अस्तु तदपि सम्यक् एव परन्तु कोष्ठं दृष्ट्वा प्रमातिनीव प्रमातिनिः वा प्रमाती वा प्रमातिः वा इति
अत्र नपुंसलिङ्ग वा प्रमातिनि
अस्तु भवन्तः गृहपाठरूपेण दृष्ट्वा वयं वदामः अग्रिमवर्गे वदामः स्त्रीलिङ्गे अपि भवति नपुंसकलिङ्गे अपि भवति अतः उत्तमप्रश्नः सो अतः एतत् स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा इति अग्रे वदतु अहमपि पश्यामि भवती अपि वदतु अस्तु धन्यवादः उत्तमप्रश्नः अस्तु अत्र एषा श्रुतिः इति अस्ति अतः पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा स्त्रीलिङ्गं सम्यक्तया जानीमः एषा अस्ति एषा एताः अत्र स्त्रीलिङ्ग अस्ति चेत् एषा एते एताः
एषा श्रुतिः एते श्रुती श्रुतयः
एते श्रुती एताः श्रुतयः सम्यक् कौ महर्षी महर्षिः महर्षयः महर्षिः महर्षी महर्षयः सम्यक् अस्तु समयः अभवत् अग्रे वयम् एतत् पश्यामः प्रथमाविभक्तिरूपं बहु मुख्यरूपम् अग्रे अहं चिन्तयामि गृहपाठरूपेण एतद् भवन्तः एव पठन्तु किमर्थम् इत्युक्ते नूतनविषयः किमपि नास्ति आम् न किम् अपि च अस्ति नास्ति नूतनविषयः नास्ति अत्र तत्र कुत्र अन्यत्र अत्रापि नूतनविषयः नास्ति अग्रिमवर्गे एतत् सर्वं शीघ्रम् एकवारं दृष्ट्वा वयम् अग्रे गच्छामः अस्तु वा सो यु विल् रीड् अप् पेज् 20
टिल् द 8th लेसन् ओके
टिल् दि 8th लेसन् किमर्थम् इत्युक्ते नूतनविषयः नास्ति एकत्र अन्यत्र कुत्र अस्ति नास्ति आम् वा न नूतनविषयः नास्ति वयम् एतत् एकवारं दृष्ट्वा अग्रे शीघ्रं शीघ्रम् अग्रे गच्छामः षष्टिविभक्तिरूपं प्रति गच्छामः अग्रिमवर्गे
अस्तु भगिनि
धन्यवादः
धन्यवादः पुनर्मिलामः
धन्यवादः पुनर्मिलामः शान्तिमन्त्रम् उक्त्वा ॐ सर्वे भवन्तु सर्वे सन्तु ॐ शान्ति ॐ श्री गुरुभ्यो नमः
धन्यवादः
Everybody please stay safe.